मकरन्दकणारुणाः विघ्नं हरन्तु हेरम्ब चरणाम्बुजरेणवः एकदन्तं महाकायं लम्बोदरगजाननं विघ्ननाशकरं देवं हेरम्बं प्रणमाम्यहम्।